नमस्कारः। अस्माकं विभक्तिवल्लरी वर्गे सर्वेषां स्वागतम्। प्रथमं प्रार्थनां कुर्मः। एनाक्षरसमाम्नाय अधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन दौता गिरः पुंसां विमलैशब्दवारिभिः तमश्च ज्ञानजं भिन्नं तस्मै पाणिनये नमः। अस्मिन् सप्ताहस्य सुभाषितम्। एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा इति वयं तृतीयविभक्ति अन्तप्रयोगः गतसप्ताहे दृष्टवन्तः। तस्य एकम् उदाहरणं सुभाषिते अस्ति। एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना वासितं तद्वनं सर्वं सुपुत्रं कुलं यथा। अत्र सुभाषितकारः, सुभाषितस्य लेखकः किं करोति इत्युक्ते, वने यानि याः वृक्षाः सन्ति, ये वृक्षाः सन्ति ते सुपुत्रेण, तत्र उपमा इति वदामः, कम्पेरिसन् करोति। तदेव सुभाषिते अस्ति। अत्रापि यथा तथा इत्यस्य प्रयोगः अस्ति। तत्र यथा दृश्यते, तथा तु न दृश्यते, परन्तु अस्ति एव, तथा वयम् अवगन्तुं शक्नुमः। तत्र कम्पेरिसन् अस्ति इति कृत्वा सदृशतमम् इति वदामः। यथा तत्र वने सुवृक्षः अस्ति, पुष्पितेन सुवृक्षेण यद् सुगन्धम् आगच्छति तद् वनं वासितं भवति, वनस्य वासः तेन वृक्षेण, पुष्पितवृक्षेण भवति। तादृशमेव यथा तथा सर्वं सुपुत्रेण कुलं वासितं भवति। सुपुत्रम् इत्युक्ते गुड् सन्, सुष्ठुपुत्रं, सुपुत्रं, कुलं, क्लान् इति वदामः किल, तद् वासितं भवति। तत्र एकवारमेव वासितमपि अस्ति, परन्तु वयं वी केन् अण्डर्स्टाण्ड् यत्र यथा तत्र अस्ति तादृशमेव अत्रापि सुपुत्रेण कुलमपि वासितं भवति इति। तत्र तृतीयान्तप्रयोगः दृश्यते। एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना इति, अनन्तरं सुपुत्रेण, तत्रापि तृतीयान्तविभक्प्रयोगः दृश्यते। एकवारं तत्र अहमेव पदच्छेदं कृतवती, तद् पठामः। रागिनी भगिनी पठति वा?
एकेन तृतीया विभक्ति एव
एकवचनम्
एकवचनम् अकारान्तपुल्लिङ्गशब्दः एकशब्दः अपि अव्ययम्।
So, in eke napi, there are two things, right? Eke na and api.
Api.
So, we are... Go ahead.
Eke na, eke na. So, vrukshena, tritiya vibhakti, eka vachanam, akaranta, pullinga, su vrukshaha shabdaha, pushpi pena, tritiya vibhakti, एकवचनम् अकारान्तपुल्लिङ्ग पुष्पितशब्दः सुगन्धिना तृतीयाविभक्ति एकवचनम् ईकारान्त पुल्लिङ्ग सुगन्धिशब्दः वासितं भूतकालार्थे प्रत्ययः तदवनं तत् अपि वनं प्रथमविभक्ति एकवचनम् अकारान्त नपुंसकलिङ्ग वनशब्दः सर्वं प्रथमाविभक्ति एकवचनं सर्वशब्दः कुलं प्रथमाविभक्ति एकवचनम् अकारान्त नपुंसकलिङ्गः कुलशब्दः सुपुत्रेण तृतीयाविभक्ति एकवचनम् अकारान्त पुल्लिङ्ग सुपुत्रशब्दः यथा अव्ययम्
एतदपि पठतु भगिनि
यथा एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना तद्वनं सर्वं वासितं तथा सुपुत्रेण सर्वं कुलं वासितम्
समीचीनम् अस्तु अत्र पुष्पितेन सुगन्धिना इति विशेषणमस्ति सुवृक्षेण इति पुल्लिङ्गपदं सुवृक्षः इति सु इति उपसर्गमस्ति वृक्षः इति नामपदं तत्र सुवृक्षेण इति तृतीयान्तम् अस्ति अतः विशेषणमपि तृतीयान्तं सो इफ् इट् वास् सम्थिङ्ग् एल्स् फलम् आर् सम्थिङ्ग् एल्स् सो यु केन् दट् टैम् द विशेषणं वुड् आल्सो बीन् डिफ्रेण्ट् ओके सो पुष्पितः पुष्पितं फलं so here it is no I wanted to say strilingam sorry pushpitam kim strilinge pushpita pushpita balika okay pushpita balika so that time if I'm going to use pushpitaya balikaya tritiya tatra tadrisham bhavati so here it is visheshanam सर्वम् इति अपि विशेषणमस्ति सर्वं कुलं कुलम् इत्यस्य विशेषणरूपेण सर्वम् आगच्छति अतः तद् सर्वम् इति अस्ति अथवा सर्व सर्वा इति अपि लिङ्गं लिङ्गभेदः भवति यदा तत्र स्त्रीलिङ्गपदमस्ति चेत् स्त्रीलिङ्गे विशेषणं भवति नपुंसकलिङ्गमस्ति चेत् नपुंसकलिङ्गे इति Here also this, this all this pada vivaranam is about vanam and not tat. Tat is not a akaranta shabda. So we will learn about vanam tat a little later. Yeah. So this is about vanam alone. Okay. So just remember that. I should have written it in two sentences, but just remember that.
So this sarvam is napunsakalingam?
Because of kulam. Yes. Okay. कुलं नपुंसकलिङ्गपदम् अतः तस्य विशेषणं सर्वमपि नपुंसकलिङ्गे अस्ति सो विसा गतवान् इति रूपं किल तादृशमेव इक्त इति अपि प्रत्ययः त प्रत्ययः इति वदामः तत्रापि ककारः इस् सैलेण्ट् त प्रत्ययः इति वदामः तत्र वासितम् इति भूतकालार्थे अस्ति this whole thing this whole subhashitam is in passive voice karmani prayogah iti vadamaha whenever it is a karmani prayoga you will see the tha pratyayah used there are exceptions I am samanyataya normally in a karmani prayoga the tha pratyayah wherever we were using twanta rupam gatavan in karmani prayoga it will be gatah gatam gata say like that it will come in that I'm just introducing the topic don't worry much about it but whenever you see it in a shloka you will be able to identify okay why is it not twanta but it looks something else you will see this form in lots of shlokas so then you should know that this is not the norm kartari prayoga which we have been learning it's a karmani prayoga it's a passive voice So, when you learn passive voice, you will be able to relate to it, okay? So, कः वदति अस्मिन् सप्ताहे रामशब्दः प्रथमम्?
अकारान्तः पुंलिङ्गः रामशब्दः प्रथमाविभक्ति रामः रामौ रामाः रामां रामौ रामान् रामं रामौ रामान् रामेण रामाभ्यां रामैः रामाय रामाभ्यां रामेभ्यः रामात् रामाभ्यां रामेभ्यः रामस्य रामयोः रामाणां रामे रामयोः रामेषु सम्बोधनं हे राम हे रामौ हे रामाः.
समीचीनं समीचीनं. रामाशब्दः कोऽपि वदति वा?
We'll
go in order. Pullinga, Strilinga, Napunsakalinga. I'm going to ask Pala also, but somebody else, Rama Shabda. Let it be a revision. Every week we will do in some order.
Sure,
they want to see and say? Yeah, go ahead. You want to see? If you want to see, I have to pull it out.
No, that's fine. No, I mean, I've got it written down.
Go ahead.
Mala word. So, Rama, Rame, Ramah, Ramam, Rame, Ramah, Ramya, Ramabhyam, Ramabhihi, Ramayai, Ramabhyam, Ramabhyah, Ramayah, Ramabhyam, Ramabhyah, ह्यः रमयाः रमयोः रमानाम रमायां रमयोः रमासु हे रमे हे रमे एण्ड् हे रमाः सम्बोधनं.
समीचीनं. Somebody next. फलशब्द
अहं वदामि.
वदतु भगिनि.
फलं फले फलानि फलं फले फलानि फलं फले फलानि फलेन फलाभ्यां फलैः फलाय फलाभ्यां फलेभ्यः फलात् फलाभ्यां फलेभ्यः फलस्य फलयोः फलानां फले फलयोः फलेषु फलेषु
फलेषु. समीचीनम्. उत्तमम्. Usually we don't call hey phale, right? So they have not
maybe.
That's why, but it is there, of course. There is no rule saying that there is no sambodhanam for napunsakalinga pada. So dadi and all, they will not even go ahead.
He phala, he phale, he phalani.
Thavadeva. Samitina.
Thanya.
So we did rama, we did rama, we have done phala. Okay, so we will go to the next category, but I would like to hear these three every week. We will be doing this ratanam. I am by process, whoever is listening, they should also be able to memorize it. Okay, so next will be ikarant. Shamitam, nadi is there, ikaranta we will do, then we will come to our vivakti vallari category. Okay, so next week it will be nadi shabdah. एतावता किं दृष्टवन्तः? प्रथमाविभक्ति दृष्टवन्तः. प्रथमाविभक्ति वस्तुनिर्देशः. एषः बालकः, एषा बालिका, एतत् पत्रं, वस्तुनिर्देशः. अनन्तरं यदा अहम् इदानीमेव उक्तवती दट् सुभाषितं वास् वास् इन् कर्मणि प्रयोग ऐ हव् वि सो इन् कर्मणि प्रयोग द प्रथमा विल् टेक् अ डिफ्रेण्ट् फार्म् सो नो वरीस् अबौट् इट् बट् ऐ हव् टु बि इन्फार्म्ड् सो इट् इस् देर् मच् लेटर् सो इन् कर्तरी प्रयोग इत्युक्ते आक्टिव् वाय्स् मध्ये कर्ता प्रथमा विभक्त्यां भवति रामः पठति कर्ता रामः प्रथमाविभक्त्याम् अस्ति अनन्तरं द्वितीयाविभक्ति दृष्टवन्तः तत्र कर्मपदं रामः पाठं पठति रामः किं पठति पाठं पठति कर्म अनन्तरं द्विकर्मकप्रयोगः दृष्टवन्तः कानिचन दातवः क्षम्यतां कश्चन दातवः स्वीकृत्य तस्य द्विकर्मक प्रयोगे तस्य प्रयोगः कथं भवति इति दृष्टवन्तः अनन्तरम् उपपदद्वितीया उभयतः परितः विना इत्यादि अस्ति चेत् तत्र द्वितीयाविभक्तिप्रयोगः भवति तस्मात् पूर्वं यत् शब्दः अस्ति तस्य द्वितीयाप्रयोगः भवति इति दृष्टवन्तः गृहं परितः विद्यालयं उभयतः इति जलं विना मीनः न जीवति जलं विना तत्रापि द्वितीयप्रयोगः दृष्टवन्तः अनन्तरं सकर्मकधातूनां प्रयोगः सकर्मकधातुः इत्युक्ते रामः पाठं पठति पठति इति यद् क्रियापदं सकर्मकक्रियापदं दट् मीन्स् इट् विल् टेक् अ कर्म ट्रान्सिटिव् अण्ड् इन्ट्रान्सिटिव् वर्ब् ट्रान्सिटिव् वर्ब् अतः देर् विल् बि अ कर्म इन् इट् सो पाठम् इति कर्म परन्तु रामः अस्ति इति स्वीकुर्मः चेत् तत्र अस्ति इति क्रियापदं तत् इन्ट्रान्सिटिव् अस्ति अकर्मक इट् विल् नाट् गेट् अ कर्म अट् आल् ओके सो अकर्मक वि विल् सी इट् सेपरेट्लि इन् डीटेल् वेन् वि डू जि एस् वन् आर् प्राब्लि ऐ थिङ्क् इट् इस् जि एस् टु पोर्शन् सकर्मक आर् धातु which will take a kriyapadam so dvikar sakarmaka is first dvikarmaka is it can take more than two so it will definitely take one it can take more than one also that is what is the difference between dvikarmaka and sakarmaka so and in dvikarmaka we saw there are this is like this set of dhatus only can take two karmas so that means there are dhatus we can take one karma also and the others which will not take karma at all which cannot take karma at all so that is one and
can you give example for dvikarmaka prayogah
dvikarmaka prayogah vayam drishtavantah kila adhyapika chatram prashnam prichati adhyapika
dvitiya vibhag okay I was going into tritiya okay I got it now thank you
सो त्वान्त अस्ति चेत् त्वान्तप्रयोगः अस्ति चेत् ल्यभन्तप्रयोगः वा तुमुनन्त शत्रन्त तस्मात् पूर्वं यत् पदम् अस्ति तस्य द्वितीयान्त द्वितीयाविभक्तिः भवति इति अपि दृष्टवन्तः सो वेन्नेवर् यु सी दीस् पदास् यु शुड् बि लैक् यु इट् इस् अ क्लू as we say upapadam ityukte it is a clue that that word before it will take a dvitiya okay then tritiya what did we see sadakatamam karanam sadakatamam ityukte dvichakrikaya gacchati bus yanena gacchati tatra sadakam sadhanam va sadakatamam karanam anantaram bhavasuchakanam santoshena jivati bhavasuchakam अनन्तरं कारणवाचक यत्र हेतुः अस्ति रीज़न् तत्र कारणवाचक वाचकानां तृतीया अनन्तरं प्रयाणसाधनस्य प्रयोगे सो साधकतमं प्रयाणसाधनं भेदः कः इत्युक्ते साधकतमं यु आर् यूसिङ्ग् इट् एस् एन् इन्स्ट्रुमेण्ट् कर्तर्या कर्तयति तत्र साधकतमं प्रयाणसाधनं प्रयाणसाधनम् अस्ति चेत् तृतीया एव द्विचक्रिकया एव गच्छति यु डोण्ट् हेव् एनी अदर् आप्शन् यु काण्ट् यूस् एनिथिङ्ग् एल्स् That is prayana sadhanam is that one. And sadrisha prayogaha adhya vayam pashyamaha. Sadrisha prayoge katam tritiya bhavati iti adhya pashyamaha. Anantaram saha vina alam. Tatrapi tritiya bhavati. Ramena saha lakshmanaha gachati. Atrapi jalena vina meenaha na jivati. So vina asti chet dvitiya api bhavitum arhati, tritiya api bhavitum arhati, panchami api. When we go to panchami, we will see. Panchami api bhavitum arhati. Alam yoge tritiya. Alam kolahalena. There we saw one example. Alam. Tatrapi. Enough of kolahalam. Iti. Tadapi drishtavantaha. Adya kinchit. Tasya. Tritiya handout. अस्तु विभक्तिवल्लरी प्रथमं समापयामः अनन्तरम् अत्र प्रश्नः अस्ति वा यु हेव् क्वश्चन्स् वी केन् डू हियर् अदर्वैस् विल् गो टु द वन्स् वी हेड् लेफ्ट् औट् इन् द सो मच् सैलेन्स् केन् ऐ टेक् इट् एस् एव्री वन् इस् क्लियर् और् यु हेव् नाट् डन् इट्
यस् मे
Clear. 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 Okay. Okay. Clear is okay. Yes, ma'am, means I thought I've not done it at all. Astu. Hetu vachakaha we did. So whatever, till the ones we did last week, anywhere you have doubts, you please stop me. We can go back and complete the exercise. So from 9 we had to do, right? Astu. विजयलक्ष्मी भगिनी करोति वा
अस्तु भगिनि नैन्थ् वन् आवरणे दत्तानां शब्दानाम् उचितैः रूपैः रिक्तानि स्थलानि पूरयत पाचकः छुरिकया शाकं कर्तयति अर्जुनः बाणैः कौरवान् मारितवान् महिला समाजन्या मार्जितवती चित्रकारः अङ्कनीभिः कूर्चैः च चित्रं लिखति भवती तया सह आगतवती
भगिनी एतावता वदतु तत्र चूरिकया इति वी हेड् सम् केटगरीस् रैट् सो इन् विच् केटगरी विल् इट् कम् चूरिकया इति साधकतमं वा
इन्स्ट्रुमेण्ट्
साधक संस्कृतं भगिनि
अय्यो साधनम्
साधकतमं साधनं तत्र प्रश्नः किमर्थम् इत्युक्ते भवत्याः सम्भाषणस्य अभ्यासः द्वितीयं वदतु किम् अस्ति
अर्जुनः बाणैः कौरवान् मारितवान् इवन् दिस् इस्
साधकतमं वा साधनं साधनमेव समीचीनं वदतु साधनम्
महिला इवन् द थर्ड् वन् इस् सम्मार्जनय्या सम्मार्जन्या साधनं
साधनं
चित्रकारः अङ्कनीभिः कूर्चैः च चित्रं लिखति अङ्कनीभिः अण्ड् कूर्चैः एव साधनं
साधनं समीचीनं कया इति कीदृशप्रयोगः
सह आगतवती कया इस् तृतीया विभक्ति आफ् शब्द किं शब्द
किं शब्द समीचीनमेव परन्तु किमर्थं तत्र तृतीया विभक्तिप्रयोगं कृतवन्तः वयं
यारोड this comes under
समीचीनं सः अस्ति कारणेन सः उपपदमस्ति सहयोगे तृतीया थर्ड् केटगरी अस्माकं सहयोगे तृतीया
थर्ड् केटगरी सहयोगे तृतीया ह्ययः ह्ययः भवान् जनन्या ह्यः भवान् जनन्या सह कुत्र गतवान् ये अपि सः उपपदविभक्ति
सहयोगे तृतीया
सहयोगे दुष्टः सर्वैः सह कलहं करोति
उत्तमं
सहयोगे तृतीया भवन्तः अपि अस्माभिः सह संस्कृतं पठन्तु सहयोगे तृतीया प्लूरल् धनेन विना जीवनं कठिनम् धनेन विना हा विना योगे तृतीया
समीचीनं
दन्तस् दन्तैः विना चर्वणं न शक्यम् ये अपि विना योगे तृतीया
समीचीनम् उत्तमं चर्वणं न शक्यं समीचीनं धन्यवादः भगिनि प्रिया भगिनी करोति वा
आम् आं भगिनि भिक्षुकः आशया
एकादश
ओ एकादश भक्त्या विना पूजया कः लाभः भक्त्या विना उपपदयोगे तृतीया विभक्ति भिक्षुकः आशया द्वारसमीपं गतवान् आशया भाव सूचक तृतीया
भावसूचक सूचकपदम् आशा इति अतः तृतीया
भावसूचकपदं तृतीया धन्यवादः विशेषतया वक्तव्यं किमपि नास्ति भावसूचकः तृतीया कलहेन न्यायनिर्णयः न भवति कलहेन भावसूचकः एव हेतु
कारणं कारणं तत्र भावसूचकं नास्ति कारणं हेतु
कारणं
कारणवाचकः
सः ताडनेन शुनकस्य कोपं वर्धयति अत्र अपि कारणवाचकशब्दः अश्रुविमोचनेन कष्टस्य निवारणं न भवति अश्रुविमोचनम् अत्र अहं न जानामि भगिनि
अश्रुविमोचनम् इत्युक्ते क्रैङ्ग् इति तत्र भाव भवति वा हेतु अपि भवितुमर्हति द्वौ अपि भवितुमर्हति can take anything by that कष्टस्य निवारणं न भवति केन कारणेन अत्र भाव एव कारणं किमपि नास्ति किल यदा वयं कलहेन न्यायनिर्णयः न भवति तत्र कारणमस्ति कलहः इति कारणं ताडनम् इति कारणं येन तद् न भवति कार्यं न भवति अत्रापि कष्टस्य विमोचनं न भवति इति कार्यं we can take it as both also yeah it was fits in both
okay aushadasy uchcharana matrena rogah na apagacchati uchchara matrena atra prayana sadanam asti bhini
Ucharana matrena is like by just telling the name of the aushadha, your roga will not go.
अस्तु वेगदूतयानेन सामीसुखयानेन वा वयं धर्मस्थलं गच्छामः. अत्रैव अत्र प्रयाणसाधकम्
अत्र प्रयाण
मैम् हौ अबौट् द 17th वन् इट् इस् उच्चारणमात्रं
तद् प्रायः हेतु एव भवति भगिनि. औषधस्य उच्चारणमात्रेण कारणेन उच्चारणमात्रकारणेन रोगः न अपगच्छति. कारणं हेतु किल. अन्यत् किमपि इट् कान्ट् फिट् इन् टु एनी अदर् केटगरि. साधनं नास्ति, उच्चारणमात्रम् इति साधनं नास्ति, भावमपि नास्ति किल. तद् कुतूहलं तृप्ति तादृश किमपि नास्ति. It's like uttering a word, your roga will not go. Iti artaha.
Okay.
Hmm. Karotu.
Dasha dina dinanyaha dasha dinanya saha avasthaha asti.
Asvastaha. Parantu kimartam dinanyan dinani iti napumsakalinga padam kila.
ओ नपुंसकलिङ्ग. दश दिनानि
रामेण बहुवचनं
रामान् रामैः
फलेन
फलैः
दिनेन
दिनैः
तावदेव.
दश दिनैः सः अवस्थः अस्ति.
तत्र तद् अस्माकं रूप्यकः किमपि आसीत् किल तादृशं.
दशाभिः दिनैः
न न दश इस् दश इस् वाट् यु काल् दट् दे हेव् नाट् यूस्ड् इट् एस् अ विशेषणं. दे हेव् प्राबब्लि ट्रैड् टु यूस् इट् एस् अ samastapadam. It should be together if they are writing it like that. Otherwise, your question is valid. Dasha is a nitya bahu vachana padam. They should have written it together. Yes, they should have done it together. Dasha dinaihi kasmin kategoryam agacchati iti mama prashnah. अस्वस्थः अस्ति, तत्र किमपि कारणं नास्ति. यत् धनं दीयते तस्मिन् केटगरियां न आगच्छति. ओके अस्तु भगिनि, ऐ विल् चेक् वित् समथिङ्ग् सम अदर्.
मित्र अलं चिन्तेन उत्तिष्ठतु. अत्र अलं योगे तृतीया.
समीचीनं
भगिनी. एक
वदतु भगिनि.
दुष्टः सर्वे सहं कलहं करोति, अतः सर्वे अकारान्त पुल्लिङ्ग बहुवचनान्तं शब्दः अस्ति, अपि च स्त्रीलिङ्गे नपुंसकलिङ्गे द्विवचनान्तं पदम् अस्ति. अतः कथं जानामि पुल्लिङ्गः अथवा स्त्रीलिङ्गः
सर्वशब्दः इति वा?
सर्वे शब्दाः इति
सर्वे प्रसङ्गानुसारमेव भगिनि. प्रसङ्गं दृष्ट्वा
पुल्लिङ्गम् अस्ति इत्युक्ते सर्वे इत्युक्ते पुल्लिङ्गः बहुवचनान्तं, किन्तु दुष्टः एकवचनान्तम् अस्ति तथा इत्युक्ते
सर्वे. पुनः वदतु वाक्य. सर्वे दुष्टाः वा सर्वदुष्टाः वा?
सर्वः दुष्टः सर्वे दुष्टाः कथं अहं जानामि सर्वे इति अकारान्त पुल्लिङ्ग बहुवचनान्तं वा स्त्रीलिङ्गे नपुंसकलिङ्गे द्विवचनान्तं रूपम् अस्ति.
That will depend on your नामपदं किल भगिनि. सर्वे दुष्टाः इदानीं भवती जानाति सर्वे इति बहुवचनान्तरूपम् इति. यदा सर्वे बालिके इति अस्ति चेत् बालिके इति द्विवचनं स्त्रीलिङ्गं सर्वा सर्वे सर्वाः सर्वे बालिके इति भवति. अनन्तरं किं नपुंसकलिङ्गे सर्वे फले फलं फले इदानीं सर्वे फले युवर् नामपदम् आर् द
दुष्टः लिखितम् अहं दुष्टः अस्ति दुष्टः नास्ति
सर्वं दुष्टः सर्व दुष्टः इति अस्ति वा सर्वे दुष्टाः अस्ति वा
अतः अहं पश्यामि दुष्टः अस्ति तदनन्तरं पेरेन्थिसिस् मध्ये सर्वे अस्ति वेल् दे हेव् रिटन् दुष्टः विच् इस् सिङ्ग्युलर् एकवचनान्तं बट् इन् पेरेन्थिसिस् सर्वे इस् इट् कुड् बि पुल्लिङ्ग बहुवचनान्तं
नो नो द शब्दः इस् sarva shabda so probably they have mentioned that can you send it to me later I will have to look at it before I give you a conclusion on something
bagini is in vibhakti valari only number
7 cheese oh that's what I want have to see the sentence myself where is it
7th sentence in the same exercise
the one we were doing just now
yeah page 26
ओ दुष्टः सर्वे सः कलहं कुर्वन्ति अस्तु
किन्तु अतः दुष्टः करोति अपि च एकवचनान्तम् अस्ति
समीचीनं परन्तु सर्वे इति दुष्टस्य विशेषणं नास्ति भगिनि इट् इस् they want you to fill the blank right like the previous one
yeah, right
so janani iti asti jananya saha vayam agrima vakyam pashyatu bhavantah samskritam patantu bhavantah api asmabhihi saha samskritam patantu it can be bhavati also right there bhavati patatu bhavati asmabhihi saha samskritam patatu It can be bahuvachanam, right? In the bracket, they want you tritiya form, that's all. Sarva is not a visheshanam to dushta here.
Okay. So we can
did you
just
get that?
Bahuvachanantam. Okay.
Just like that koopi example which we did. A boy can drink from two koopi or he can drink from eka. It is the boy's wish. Okay, it doesn't apply there. Okay, so I was thinking,
I
have gone, okay, this is fine, this is good.
Yeah. So I was a bit confused about that, so.
No. Sarva is a akaranta pullinga shabda eva, yada bhavati uktavati, it's akaranta pullinga eva. Paranto asmin sandarbe, tad visheshanam nasti.
Okay.
It's an independent. He is doing dushtaha sarva. He does the kalaha with everyone. Sarvaihi saha kalaham karoti. That's why they have written bahuvachanam there. Not with one person, with all they do kalaha.
Dhanyavada.
Astu agre saramaha. जयरामन् महोदय करोति वा
इस् इट् नम्बर् 10
आं महोदय
अद्य कोष्टके ख विभागे एकवचनरूपं दत्तम् अस्ति, च विभागे त्रयविकल्पसूचिताः सन्ति, च विभागे स्थितं शुद्धं बहुवचनरूपं रेखया अङ्कयत्। सो उदाहरणं जनेन क विभागे एण्ड् इन् च विभागे द प्लूरल् इस् जनैः बहुवचनं.
समीचीनं.
सो चोरिणा द आन्सर् इस् चोरैः.
समीचीनं.
दन्तेन दन्तैः. भवता भवद्भिः. भवत्या भवतीभिः. भगिन्या भगिनीभिः. मया अस्माभिः. तेन तैः. सर्वेण सर्वैः. कया काभिः. लेखन्या लेखनीभिः.
समीचीनं. तावदेव.
सोरि, मया इस् इट् नाट् मयाभिः?
नो नो नो, अस्माभिः एव.
अस्माभिः
बोध रूपा दे हेव् गिवन् इस् टोटलि राङ्ग्. देर् इस् नो रूपा लैक् देट् अट् आल्. अस्माभिः. अस्मद् इति शब्दः भगिनि, अस्मद् इति शब्दात् एव अहम् आगच्छति. सो इफ् यु सी अ पेटर्न् हियर् एव्रीवेर् यु गो टु द प्रातिपदिकं, फ्रम् देर् यु एड् अ बिः. सो अस्मद् इति शब्दे अस्माभिः, अस्माकम्, एव्रीवेर् इट् कम्स् फ्रम् देट् ओन्ली. So even if we do not know all the Pratipadikams, we can make a connection from Tritiya. Tritiya Bahuvachana Rupam, Chaturthi Bahuvachana Rupam, Yada Pashyamaha, then we will know the Pratipadikam. So Tena, Taihi, it is there, one more I saw just now. Kaya, no, not this one. This one, right. भवता भवद्भिः इति बहुवचनान्तरूपं भवत् इति शब्दः, भवत् इति प्रातिपदिकं, तस्मात् भवता भवद्भिः इति रूपम् आगच्छति. भवद्भिः वि विल् नो दट् द प्रातिपदिकम् इस् भवत् इति. समीचीनं. लक्ष्मी भगिनी करोति वा? किं करणीयमत्र? 11 इत्यत्र अहमपि चिन्तयन्ती अस्मि किं करणीयमत्र. ओ, अस्य तृतीया विभक्ति अन्तं करणीयं वा? आम्,
उपरितनकोष्टकं स्थूलतया निर्देश्य नेक्स्ट् पेज् वी
हर्. ओ, इस्त हर्. ओ, अस्तु भगिनि.
रामः केन कैः सह किं कृतवान् इति उपरितनकोष्टकं स्थूलतया निर्दिशति. तदाधारेण सर्वनामशब्दानां तृतीया विभक्तिं योजयन्तः उदाहरणानुसारं वाक्यानि रचयत.
समीचीनं. तदेव अस्ति.
वन् टु त्री सिक्स् आर् देर् इयर् ओल्ड्. सः चर्चां कृतवान्, ते वादं कृतवान्. रामः तेन सह चर्चां कृतवान्, तैः सह वादं कृतवान्. लैक्
एवं करणीयम्. अस्तु, अस्तु अस्तु, समीचीनं करोतु भवति.
रामः एषः एतेन कथां पठितवान् एते पाठान् पठितवान् एतैः पाठान् पठितवान् सा गीतं गीतवान् सः कार्यं कृतवान् सा तया गीतं गीतवान् सा तभि ताभि कार्यं कृतवान्
there is a सः in between you have to say सः तया सः
सः ओ यस्
रामः तया सह गीतं गीतवान् रामः ताभि सह कार्यं कृतवान् एषः आपणं गतवान् एताः विपणिं गतवान् एतया सह रामः एतया सह आपणं गतवान् रामः एताभिः सह विपणिं गतवान् भवान् गृहम् आगतवान् वा भवन्तः क्रीडितुम् आगतवान् वा भवान् भवता भवतः सह गृहम् आगतवान् वा रामः भवतः सह आगतवान् वा भवता सह आगतवान् वा रामः भवन्तः भवद्भिः रामः भवद्भिः सह क्रीडितुम् आगतवान् वा देन् भवती कुत्र गतवान् आसीत् भवत्यः किमर्थं कलहं कृतवान् भवती भवत्या अण्ड् भवतीभिः
समीचीनं
रामः भवत्या सह कुत्र गतवान् आसीत् रामः भवतीभिः सह किमर्थं कलहं कृतवान् अहं धावितवान् वयं न उपविष्टवान् रामः मया सह धावितवान् रामः अस्माभिः सह न उपविष्टवान्
सम्यक् उत्तमं भगिनि
बट् ऐ रेड् ओन्ली सीङ्ग् तृतीया
It will take time, it will take time. That's why I say, even if you can't memorize it, have it in your hand. Print out, hand out, I still do it. Sometimes you have to go back to it. But by practice, you will get it. When you listen, that's why I send that Parayanam and Anucharanam. Everybody cannot see and by heart. When you keep hearing it, while you are doing any other work also, automatically it registers, it will stay forever. That is the best approach to learning.
I saw it.
No, that's fine, Bhagini. You will get it. Even if you, after the class you close the book, you will be able to recall it. Because you have done it. You will get it. Samichina. Tama. Ataha, Agreham, Dhanyavadaha. Agre Paramaha. Leela Bhagini, Karotiva. Atra, you have to fill in the columns.
अधो दिस् वन्
यस् भगिनि अधो निर्दिष्टम्
अधो निर्दिष्टं कोष्ठकं पठत् द्वितीयान् तानि रूपाणि when you have pulinga strilinga napumsakalingam
just make a change here it is tritiyanta rupani everything is tritiya probably a printing error here tritiyanta rupani and yes go ahead but
ikarantah harina haribhi it's pulinga matya matibhi dadna dadibhi ukarantah guruna gurubhi gan dhanva dhanva dhanubhi
धेनुभिः
मधुना मधुभिः ऋकारान्तः पित्रा पितृभिः मात्रा मातृभिः देन् ऋकारान्तः कर्त्रा कर्तृभिः
समीचीनम् So this means they don't have forms in Strilinga and Napumsakalinga. Rikaranta, both are Rikaranta only, but there will be a little change as we have always seen. But from Tritiya, there is not much change. Pitra, Pitrubhihi, Kartra, Kartru is my Pratipadikam, Kartrubhihi. So they have just given two examples in Pulinga. Otherwise, there is not much change. Not much change. Of course, Rukaranta Napumsakalinga, we are not seeing. So, Bhagini, based on this, Leela Bhagini, based on this examples, you have to fill in this column. You can do the first five, then Mahodaya can do the next five. Go ahead.
Hindu, Pulinga. Hindu bihi
uttamam
setu bihi sandhi bihi Lingam. Pushpadhani.
Nadi, Nadha. Pushpadhanya.
Pushpadhani vihi.
Uttama.
Asaktibhi.
Uttama. Asaktibhi. So everywhere here you will not have a problem at all. In Bahuvachanam everywhere you have to add a bihi. You have to go to the Pratipadikam, the Mula Shabda, add a Bihi. Here alone, there will be a change, but as we do practice, you will get that also. No issues. Mahodaya, go ahead. Term 6. Bhushambihi.
Bhushambihi. Bhushan.
Just like Asaktihi. Bhushundya.
Bhushundya. Bhushambihi.
Shankuhu.
शङ्कुः शङ्कुद्य
शङ्कुणा उकार पुल्लिङ्गं किल हिन्दुना जस्ट् लैक् हिन्दुना इट् इस् शङ्कुणा
शङ्कुना
शङ्कुना एव
शङ्कुभिः
उत्तमम्
And then the one is yata, which is yata, yata.
Yata will be like matha, matra. So,
yatya, no? Yatya.
Yatra.
Yatra, no?
Just like matha.
Yata bihi.
यात्रभिः समीचीनं यात्रभिः
कार्यकर्ता कार्यकर्ताय
सेम् थिङ्ग् लैक् यात्रा जस्ट् लैक् यात्रा कार्यकर्त्रा
कार्यकर्ता कार्या कर्ताभिः
समीचीनं कर्तृभिः
पिता पित्रा एण्ड् देन् भगवान् पित्राभिः
पितृभिः समीचीनं आल् यु हेव् टु डू इस् फालो दिस् कालम् हियर् महोदय दट्स् आल् द कालम् हि हेस् गिवन् द डिफ्रेण्ट् फार्म् सेम् थिङ्ग् यु आर् अप्लैङ्ग् इट् हियर् दट्स् आल् पुष्पदानी इस् फ्लार् वेस् महोदय भूषुण्डि बट् दिस् इस् नाट् द श वी आर् लुकिङ्ग् रैट्
पुष्पदानी इस् फ्लवर् पाट्
फ्लार् वेस्
Yeah.
It holds the pushpa, right?
Yeah, flower okay. pot or flower vase. Yeah.
Pushundihi, why am I not getting that sha? Okay. Is it a pistol? So what is this? Oh, they have not given any sentence. स्त्रीलिङ्गपदं कैण्ड् आफ् वेपन् एव भवति महोदय परन्तु ऐ विल् चेक् इन् सम् अदर् डिक्षनरि आसक्तिः इत्युक्ते इण्ट्रेस्ट् इति पुष्पधानी फ्लार् वेस् पुष्पं धारयति अतः पुष्पधानी सेतुः इति ब्रिड्ज् इण्ट्रेस्ट् संस्कृत आसक्तिनः इण्ट्रेस्ट् भावसूचक इण्ट्रेस्ट्
सन्धिः
Sandhi is like joining anything, it's Sandhi, Bhagini. That's why we say when two words are joined, always we use Sandhi, Sandhi, right? Joining anything is Sandhi only. Sandhi is joining. Agresa Ramaha.
Bhushundihi api is a sort of weapon or missile. That's in Apte dictionary.
Okay. Yeah, then it should be fine. The shakara, shakara, sometimes they use murdhanya, sometimes they use talavya, it is fine. As long as the lingam matches, it is okay.
Yeah, it's a, yeah, feminine, sort of weapon or missile.
Bhushundihi, bhushundina, bhushundya, nana, bhushundya, vritya. Kanike. Astu, agresara maha. Prasanna mahodaya karotiva.
आवरणे दत्तानां शिल्पानां
महोदय न श्रूयते सम्यक्तया, किन्द अदर्स् बि आन् म्यूट् प्लीस्.
Okay, can you hear me?
Yes, yes.
Okay. Avarane dattanam shabdanam trutiyantena rupena ekavachana riktastalam purayat. Udaharanam. Vigneshaha matra saha kashim gamishyati. हरीशः श्रोत्रा सह चर्चा कृतवान्. नागेशः धेनूना सह.
महोदय अत्र एव अस्ति.
धेन्वा सह अरण्यं गतवान्. सुरेशः मुनीनां सह मुनीना सह अग्निहोत्रम् आचरति. कल्मेषः दुहित्रा सह क्रीडति. वन् सेकेण्ड्. ओके. मुनीशः शम्भुना सह चलनचित्रं दृष्टवान्. सतीशः सुमत्या सह मातुलगृहं गमिष्यति. परमेशः भ्रात्रा सह कलहं कृतवान्. महेशः अतिथ्या सह वायुविहारं करोति. वेङ्कटेशः बीरुणा सह स्नेहं न गच्छति इच्छति. गिरीशः नियुद्धपटुणा सह अभ्यासं करिष्यति.
समीचीनं. नियुद्धपटुः इस् कुशला इन् युद्ध. नियुद्ध तदपि सम्यक्
अस्ति. अतिथि एसिडेंट मैस्कुलाइन
अतिथिः इति स्त्रीलिङ्गपदं महोदय. किमर्थं तद् पुल्लिङ्गम् इति दृश्यते वा? किमर्थं स्कुलं अस्तु. अहम् ऐ विल् कन्फर्म् इट्. ओके. आल्वेस् अतिथिय स्त्रीलिङ्गमेव. पश्यामि. अनन्तरम् एतत् नियुद्धपटुः, नियुद्ध इत्युक्ते युद्ध वयं जानीमः.
भीरुः इति अर्थे
भीरुः कवर्ड् इति अर्थे वा महोदय? वीरः विरुद्धार्थकपदं. नियुद्ध इत्युक्ते फैटिङ्ग् एव. नियुद्ध फैटिङ्ग् एनी फैटिङ्ग् स्किल्ड् इन् फैटिङ्ग् नियुद्धपटुः. उत्तमम्. अतिथिः अस्तु, पश्यामि. पुल्लिङ्गमस्ति चेत् रूपं भिद्यते. अतिथिना अतिथिना
अतिथिना सह
द्रष्टव्यम् अहं किञ्चित् अन्यत् कोशं दृष्ट्वा वदामि. किल्ड् इन् फैटिङ्ग्. पटुः पटुत्वम् इति वदामः किल.
वारियर्स्.
पटुः इत्युक्ते कौशलत्वं. हि इस् गुड् इन् संथिङ्ग् इस् पटु. वाक् पटुः, क्रीडापटुः, युद्धे पटुः.
भगिनी नियुद्ध मीन्स् रेस्लिङ्ग्.
रेस्लिङ्ग् इति किमपि फैटिङ्ग् इति एव दत्तमस्ति भगिनि. तादृशं किमपि अत्र न दत्तं. प्रायः भवेत् फैटिङ्ग् इत्येव नियुद्ध इत्युक्ते फैटिङ्ग्. प्रायः रेस्लिङ्ग् किमपि. It's a general term.
At one point, yeah, third one says close or personal struggle. It could be then wrestling if you want to.
Self-defense iti arte vayam svikurmaha. That's also fighting, right? Astu. Srinivasan Mahodaya. अस्ति वा महोदय?
आवरणे दत्तानां शब्दानां तृतीय बहुवचनान्तेन रूपेण रिक्त स्थलानानि पूरयत्. उदाहरणे विनायकः कृतिभिः प्रसिद्धः. नेक्स्ट् वेदिका उक्तिभिः शोभते. सर्वे बालाः पिताभिः सह आगच्छतु. इति
क्षम्यतां महोदय. वेदिका सारि
वेदिका उक्ताभिः
वक्तृभिः. वक्ता इति अपि ऋकारान्तशब्दः. वक्तृ वक्तृभिः शोभते.
वक्तृभिः शोभते. ओके. सर्वे बालाः पितृभिः सह आगच्छति.
समीचीनं.
तानि तानि नगराणि शेतृभिः विराजन्ते.
उदरं भरिः
सः अधिकम् उदरं भिः
सः अधिकस्नेहः मास्तु.
Okay, but this I am thinking about this.
Udharam
bharihi. Udharam.
Udharam bharihi.
Udharam itiyukte stomach, Mahodaya. I think greedy is meaning. Let's see.
One who gives out money actually.
Udharam bhari. Nice words to that. लिङ्गं प्रथमम् एड्जेक्टिव् सेल्फिश्. उदरं बरि इट्स् पुल्लिङ्गे स्वीकरोतु महोदय. किमपि न दत्तमस्ति किल तत्र. अधिकस्नेहः मास्तु. पुल्लिङ्गे एव स्वीकरोतु. एड्जेक्टिव् एव अस्ति. उदरम्बरीनासः अस्ति वा महोदय? दे हेव् गिवन् बहुवचनं रैट् सो यु आर् गुड् उदरम्बरिभिः यु आर् रैट् गो हेड्
उदरम्बरिभिः सह अधिकस्नेहः मास्तु
अधिकस्नेहः
फ्रेञ्च्
डोण्ट् हेव् फ्रेण्ड्शिप् वित् सेल्फिश् पीपल्
सः पेटिका सज्जुभिः बद्धवान्
रज्जुभिः इत्युक्ते रोप् हि टैड् द बाक्स् वित् रोप् रोप्स् बहुवचनं रज्जुभिः
भ्रमराः मोदन्ते वाग्मी सूक्तिभिः जनान् बोधयति
माता इत्यस्य तृतीया
भवन्तः मातृभिः मातृभिः सह क्रीडन्तु वैद्यः दधिभिः औषधं निर्माति शिबिरस्थानं कुटिभिः पूर्णमस्ति
समीचीनं शिबिरस्थानम् इत्युक्ते केम्प् कुटिभिः पूर्णमस्ति kuti is that small hut type thing
what is modante
modante is to make them happy prasidante modante happy madubhi modante by drinking that madu they are feeling happy pleased with the arte bhavati then one more thing was atithi is a pullinga pada eva atithina iti agachyati pullinga pada strilingam nasti mahesha atithina sah vayu viharam karoti yes bagini
vaktrubhi
where is vaktrubhi
वक्तृभिः
आं वक्तृभिः एव वक्ता इति ऋकारान्तशब्द वक्तृभिः शोभते वेदिका स्टेज् दिस् टैम् ऐ रिमेम्बर् वेदिका नौ वेल् स्टेज् वक्ता इस् अ पर्सन् स्पीकर्स् ओरेटर्स् ओरेटर्स् आर् स्पीकर्स्
बै स्पीकिङ्ग् दे शैन्
द स्टेज् इस् शैनिङ्ग् वित् स्पीकर्स् ग्रेट् ओरेटर्स् अतः इट् इस् शैनिङ्ग् वाग्मी आल्सो इस् ओरेटर् एव वाक् करोति वाग्मी सूक्तिभिः जनान् बोधयति हि इस् गिविङ्ग् लाट् आफ़् गुड् सूक्ति इस् लैक् सुभाषितम् ओन्लि
Bhagini, can we spend 5 minutes in going through the assessment to answers?
Assessment answers, but everyone has not taken it, Mahodaya.
Oh.
I don't think there are still, from this class itself, I have some 3 people who have still not taken the assessment. I'm waiting for them to complete so that I will close
yes,
the Bhagini. Link.
Yeah, yes, Bhagini.
I need to close the link.
Oh, I thought, no, actually, my children, both of the children were sick, and I opened it on Thursday evening. So I thought the time has completed, so it will not take. So, I didn't try to...
No, I opened it because somebody else came up with something like this. So, I have left it open.
Thank you.
There will be... Please complete.
Thank
I'm waiting
you.
To close
thank
it.
Thank you so much. Thank you so much. I wanted to ask permission.
Srinivasan Mahodaya, I'm waiting for you also to write. And Prasanna Mahodaya, you didn't take it last time itself. So, you have to take it this time. No excuses. Others, I think, have done it.
Yeah, I'll do some revisions. I'll do it by next Friday.
Yes. It will be open, but I have kept an automatic, it will mark automatically. I will not be giving feedback, but at least please take it.
Thank you. Thanks. Dhanyavad.
Mahodaya, we will, Jayaraman Mahodaya, probably we will discuss it next week. We will wait for them to complete it.
No problem.
And when everyone has taken the exam, please can you upload the answers?
Answers are uploaded already, Bhagini.
Answers are already there. So when you solve the question, you get your result and you get the answers.
Yeah,
I mean, that is the simple answer now. You should find your answer.
Okay. So I will just do a little of Chaturthi today. Then I want to read that Nashta Pishta Gataha. We have 10 minutes to can others go on mute, please, everyone, please? Thank you. Yeah. So, this is one more usage of Tritiya here. Sadrisha Yoge Tritiya. This is the only category we had left, so we will do that also. Arjunena Sadrishaha Viraha Viralaha. So, you are comparing. Vira. Arjunena Sadrishaha Viraha Viralaha. Viralaha, rare. Same way, Pitra Sadrishaha Putraha Asti. Just like we did that, Yata Tata. Here he is using the Sadrisha. Sadrisha means comparison only. The word by itself is comparison. Pitra Sadrishaha Putraha Asti. Then, Manushena Sadrishaha Buddhiman Prani Nasti. Matra Sadrishi Putri. But you have to make a note, when you are using Strilingam, that Sadrisha, Sadrishaha Pullinga Padam Sadrishi Bhavati Strilinge Matra Sadrishi Putri Yata Mata Tata Putri Matra Sadrishi Putri. Then Chandrena Sadrisham Mukham. This is a very, very popular usage in Sanskritam. Chandrena Sadrisham Mukham Iti. Always they compare this. It will always come in your Upama and all. If you are going to learn Alankaram or Kavyam later, you will always find this. Chandrena Sadrisham Mukham. Mukham Napum Sakalingam Ataha Sadrisham. Sadrishaha Sadrishi Sadrisham. Iti. Parantu Tatra Yad Padam Purvam. Yena Vayam. With which we are comparing, that will be in Tritiya. Chandrena Mukham. Mukasya Sadrishatamam. Tolana iti vadamaha, comparison. Ataha, with which we are comparing will be in Tritiya. With which, you can remember that. With which we are comparing will be in Tritiya. Matra sadrisham putri. Putriyaha tolanam matrasaha. Ataha matra iti tritiyanta rupam. Tavadeva atra sadrisham ityasya.
Shamitam Bhagini, sadrishi is with putri or... With matra, sadrushi. Compare, I mean, like, sadrushi. Sadrushi putri.
Sadrushi putri,
sadrushi matra.
Oh, you are asking whether the sadrishi is taking after the matra or the putri. Here is the best example for that. Chandraha is the pullinga padam. Sadrisham mukham. So, mukham sadrisham. So that's, yeah. definitely. You know, you can do this exercise. Okay, so we'll start off Chaturthi this week. So Ajanta Shabdanam Chaturthi Kim Bhavati Iti Pashyamaha. Bhavani Bhagini?
Sorry, Bhagini, is this in the Vibhakti Valari book? Because I can't see this.
Sadrisha Tamam is not there in Vibhakti Valari. Okay. Sadrisha is not there.
Mm-hmm.
Sadrisha Prayoga, you can see it in many places. So I thought I will include it. It's not something difficult. Okay, yeah. Bhavani Bhagini, can you start off in this?
Bhagini, then. अधो लिखितानि वाक्यानि पठत नृपतिः महर्षये ग्रन्थं समर्पयति गृहस्थः महर्षिभ्यां वस्त्राणि ददाति श्रद्धालुः महर्षिभ्यः फलानि ददाति महिला तरवे जलं ददाति युवकः तरुभ्यां जलं ददाति कृषकः तरुभ्यः जलं ददाति सचिवः कार्यकर्त्रे पत्रं ददाति अध्यक्षः कार्यकर्तृभ्यां पुष्पहारं ददाति अधिकारी कार्यकर्तृभ्यः पुरस्करं ददाति
समीचीनं सो सर् एव्रीवेर् इट् इस् पुल्लिङ्ग शब्द महर्षि महर्षे सो हियर् इस् अवर् क्लू महर्षि from this and the byaha is added everywhere. Okay, so from Chaturthi you will see a difference, but the Dvivachanam for Tritiya, Chaturthi, Panchami will be the same. So how will I know the difference? Only by reading the sentence and understanding the meaning. So whenever there is a Dadati, the sentence will take a Chaturthi. For him I give. So Chaturthi. Tarave jalam dadati. So, for the taru, tree, she is giving water. So, dadati ityarthe chaturthi bhavati. So, dadati is our clue that it should be in chaturthi.
Okay.
Strilinge kim bhavati iti pashyamaha. Adya, we will just learn the rupa only. In sentences, we will do it again in next class. Anyone else who has not had a chance?
धन्यवादः
दिस् महिला इस् नाट् ए स्त्रीलिङ्ग
ये या इट् इस् स्त्रीलिङ्ग ओन्ली महोदय
ओके थैंक यू
हियर द फोकस इस् ऑन द दिस् शब्द इन् चतुर्थि पुल्लिङ्गम नाट् द कर्ता
ओके ओके ओके
Okay, yeah, so yeah, next yeah. one is, here it is going to be Strilinga Chaturthi.
Okay.
Okay. Anyone else who has not read?
Could I go ahead?
Go ahead, but
I don't think I'm not done yet. Yuvakah, yuvatyeh, yuvate, pustakam dadati. Apanikah, yuvatibhyah, yuvatibhyam. वस्त्राणि ददति
ददाति
ददति
बहुवचनं भवति अतः ददाति
ददाति मन्त्रीणि युवतीभ्यः पुरस्कारं यच्छति पिता पुत्रे कङ्गणं ददाति मात्रा पुत्रीभ्यां परिधानानि ददाति व्हाट इज परिधानानि ओके शी इज फीडिंग समथिंग इन हिज फेस
या शी इज गिविंग समथिंग लेट्स सी
विनायकः पुत्रीभ्यां पुत्रीभ्याः च chocolate dadati, getting chocolates. Swami dhenave ghasam dadati. Gahani dhenubhyam rotikah dadati. Gopalah dhenubhyah annam dadati. Ayojakah abhinetre dhanam dadati. Neta abhinetri bhyah puraskaram dadati. Patravahakah abhinetri bhyah अभिनेत्रीभ्यः पत्राणि ददाति.
समीचीनम्. अत्रापि चतुर्थी स्त्रीलिङ्गं. सो वाट् वी विल् डू इस् ऐ विल् बि ऐ थिङ्क् ऐ हेव् आलरेडि अटाच् बट् एनिवे ऐ विल् अटाच् द शीट् सो लुक् अट् द फार्म्स् लर्न् द फार्म्स् देन् वी विल् स्टार्ट् यूसिङ्ग् इट् इन् सेण्टेन्सस् सो दे हेव् गिवन् लाट्स् आफ़् एक्साम्पल्स् अण्ड् दे हेव् आल्सो वित् दिस् वन् वी विल् डू इट् इन् क्लास् ऐ विल् टेल् यू हौ दे हेव् चेञ्ज्ड्. You can have a look, but I will tell you how it has happened. Into nashta pishta gataha. It has been there for a long, long time. Jai Raman Mahodaya Bhavan Nivarambam Karoti Va. Mahodaya, Jai Raman Mahodaya.
Sorry, I had put myself on mute.
Okay,
nashta pishta ghatakah. Kasmin chit. Nagare, kaschanan daridraha brahmanaha vasatisma. Saha bhikshatanena jivanam karotisma. Kadachit saha पिष्टेन पूर्णं एकं घटं प्राप्तवान्. सः घटं नागदन्ते अवलम्ब्य तस्य अधः उपविश्य सः एकदृष्ट्या घटमेव पश्यति स्म.
महोदय, किम् अवगतवान् इति वदतु.
ओके, is this the same as, oh, this is a different nashta pushta?
No, same thing only. There are two different stories.
The one that, oh, okay.
Probably some words would have been changed. Is it?
You want me to...
Kasmin chitta. You can go ahead if you want in English or Sanskritam, whichever you are fine. I am okay with anything.
In some city, there was one poor Brahmin lived, and he was, by begging, he was living. Bhikshadanam jivanam karoti sma. कदाचित् सः पिष्टेन पूर्णम् एकं घटं प्राप्तवान्. विच् मीन्स् ही हेड् अ पाट् फार् बेकिङ्ग्. इस् दट् द वन्?
न, पिष्टः इत्युक्ते फ्लार्. पिष्टेन पूर्णम् एकं घटं प्राप्तवान्. ही गाट् इट्. ही गाट् अ पाट् फिल्ड् वित् पिष्टः. पिष्टः इत्युक्ते फ्लार्. एनी फ्लार् इस् अ पिष्टः.
Oh, okay. Yeah, flower pot, okay. Taha gatam nagadante avalamya tasya adhyaha upavishyaha saha yekadrishtya gatameva pashyadisna. Nagadante, I don't understand that.
Nagadante is like it will be like a hanging, what do you bag. Call that? Hanging, this one. No, it's called something. I just forgot the name. That a round hook, right, like think, right? Nagasya dantaha iva, round hook on the wall which we put, and you hang something on it, right? It looks like a danta of the naga, sarpa nagasya dantaha iva. No, it's not round actually, it's a straight line one. I think one had a picture of it also. Okay, something like this. Okay, we'll take it like this. Yeah. Here, where he has put his pot. Okay. Eka drishtya gatameva pashyati. He's seeing, focused on the gata itself. Gatam only.
Bhagini, I have a doubt here. Pishtena, pishtena, what the meaning you said, Bhagini?
Floor, F-L-O-U-R, floor. Pishtena purnetam. With the floor, the gadam was filled. Gataha was filled.
I thought some other way, because in that dictionary, it was given as burnt. So I thought before burning the pot, the earthen pot which is there. So I was thinking that way, because the meaning they have given as burnt or something like that. So purvam, before burning the pot, after they make a pot, they burn it to make it strong. So I thought that way.
Okay. No. Filled with flour. That's how the story can go ahead, right?
So, that's why I didn't follow. Okay, thank you. Dhanyavada.
Okay. Should I continue? Yeah, but the time is up. That's what I am seeing. Okay. We will probably do it in the next class. So what I want you to do in this this one is just identify the vibhaktis or pishtena puri, purnam. We have seen this. So here nagare is in saptami, so it is kasminchit nagare. Parantu daridraha is in prathama, so it is kashchana. Kaha chana kashchana daridraha brahmanaha. Like that, just try to understand the vibhakti. Why I am insisting on understanding the vibhakti is, once you understand the vibhakti, the meanings will just set in by itself. One after another like that, it will come. So, eka drishtya eva gatam eva na means drishtihi iti stri lingam, drishtya with one eye, with the focus as we translated. He was just looking at the gata and then the other things came. Okay, so like that. We will do this as the first thing in the next class before we start Chaturthi. There is a nice shloka also in the end.
Okay. Dhanyavada.
Do the Shanti Mantra. Sarve Bhavantu.
Sarve Bhavantu Sukhinah. Sarve Santu Niramayah. Sarve Bhadrani Pashyantu. Ma Kachit Dukkha Bhag Bhavet. Om Shanti Shanti Shanti.
धन्यवाद
धन्यवाद धन्यवाद धन्यवाद.